एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः चिकित्सकानाम् आक्रमणकारिणो दण्ड्यन्ते इति प्रतिबद्धताम् व्यनक्ति। ह्यो नेपाल चिकित्सक संघस्य ज्ञापन पत्रम् गृह्णन् प्रधानमन्त्री प्रचण्ड चिकित्सकानाम् आक्रमणकारिणः विधेरनुसारेण दण्ड्यन्ते इति प्रतिबद्धताम् अभिव्यनक् इति संघस्य उपाध्यक्ष डाक्टर प्रकाश बुढाथोकी अज्ञापयत्। प्रधानमन्त्री प्रचण्ड सार्वजनिक स्थले कार्यम् कुर्वताम् स्वास्थ्यकर्मिणाम् आक्रमणकारिभ्यो एभ्योऽपि जनेभ्य उन्मुक्ति न दीयते इत्युक्तवान् इति उपाध्यक्ष बुढाथोकी सूचयत। अस्यैव भाद्रस्य सप्तविंशे दिवसे हेटौडावर्तिनः सञ्चो चिकित्सालयस्य चिकित्सकयोः डाक्टर विकास थापा विधे डाक्टर प्रशान्त बिडारी तस्मिन् च रोगणानाम् उपचारस्य समये विहितस्य आक्रमणस्य विरूद्धे संघस्य अध्यक्षस्य अनिल विक्रम कार्किणः नेतृत्वे गतेन समूहेन प्रधानमन्त्रिणे प्रचण्डाय ज्ञापन पत्रम् अर्पितम् आसीत्। अत्रान्तरे हेटौडा स्थानस्य द्वयोः चिकित्सकयोः चिकित्सालय कक्षे ताडकाः चत्वारो जनाः मकवानपुर जनपद प्रहरिणा ह्यो निगृहिता सन्तीति एतत् जनपदीय प्रहरी कार्यालयो ज्ञापयति। घटना विवरणस्य अनुसारेण मासपूर्वम् डेंगूरोगेण संक्रान्तस्य हेटौडा उपमहानगरपालिकायाः द्वादशवडा क्षेत्रवर्तिनः पदमपोखरी स्थानस्य एकचत्वारिंशद् वर्षीयस्य राजेश प्रधानस्य उपचारः उपेक्षितः इत्यारोप्य एतौ चिकित्सकौ गत बुधवासरे ताडितौ आस्ताम्। सञ्चो चिकित्सालये उपचारस्य असम्भवत्वात् रुग्णम् प्रधानम् चितवन शिक्षण महाविद्यालयम् नेतुम् परामृष्टम् आसीत्। चिकित्सा महाविद्यालये डेंगूरोगेण संक्रान्तः प्रधानः उपचारस्य क्रमे मृतः आसीत्। चिकित्सकानां ताडने संलग्नाः प्रधानस्य पत्न्या पुत्र्या च सह अन्यत् जनद्वयम् प्रहरिणा ह्यो निगृहीताः सन्ति। तत्र आवश्यकम् अनुसन्धानम् विद्यमानमस्ति इति च प्रहरी ज्ञापयति। संविधानसभायाः अध्यक्षस्य नेकपा एमाले दलस्य उपाध्यक्षस्य च सुभाष चन्द्र नेवाङ इत्यस्य ह्यो राजकीय सम्मानेन अन्त्येष्टिर्विहिता। तस्य पार्थिव शरीरे पुत्रौ मिङ्सो नेवाङ, सुहाङ नेवाङ च दाहदीपम् अदत्ताम्। पशुपतिवर्तिनी आर्यघाटस्थाने प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः स्वर्गीयस्य नेवाङ इत्यस्य शरीरे राष्ट्रिय ध्वजम् आच्छाद्य सम्मानम् व्यक्तवान्। नेपाली सेनायाः समूहेन स्वर्गीयस्य नेवाङ इत्यस्य सम्माने सैन्याभिवादनम् अर्पितम् आसीत्। एवमेव नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली दलस्य ध्वजम् आच्छाद्य तस्मै अन्तिम श्रद्धाञ्जलिम् अर्पयत्। सभामुख देवराज घिमिरे, राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिलमल्सिना, नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा, उप प्रधानमन्त्री मन्त्रिणः, सांसदाः, विभिन्नानाम् राजनीतिक दलानाम् नेतारः, कार्यकर्तारश्च, सुरक्षा निकायानाम् अधिकारिणः, कूटनीतिक नियोगानाम् प्रतिनिधयः, सम्बन्धिजनाः, शुभेच्छुकाश्च आर्यघाटस्थाने तस्मै अन्तिम श्रद्धाञ्जलिम् अर्पयन्। स्वर्गीयस्य नेवाङ इत्यस्य दाह संस्कारे सहभागी भवितुम् पशुपतिवर्तिनी आर्यघाटस्थाने सर्वसाधारणजनानाम् सम्मर्दः उपस्थितः आसीत्। प्रतिनिधि सभायाः गतदिवसीयोपवेशेन संविधान सभायाः अध्यक्षस्य पूर्वसभामुखस्य प्रतिनिधि सभायाः सदस्यस्य च सुभाष चन्द्र नेवाङ इत्यस्य निधने शोक प्रस्तावः पारितीकृतो वर्तते। उपवेशे स्वर्गीयस्य नेवाङ इत्यस्य आत्मनः चिरशान्तये एककलाम यावत् मौन धारणं विहितम् आसीत्। प्रतिनिधि सभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। एवमेव राष्ट्रिय सभायाः गतदिवसीयोपवेशेन च नेवाङ इत्यस्य निधनं प्रति शोक प्रस्तावः पारितीकृतो वर्तते। राष्ट्रिय सभायाः अपरोपवेशः आगामिनः आश्विन मासस्य द्वादशे दिवसे दिवा एकवादने वस्ता। नेकपा एमाले दलीय संसदीय दलस्य ह्यस्तनोपवेशेन दलस्य उपाध्यक्षस्य संविधान सभायाः अध्यक्षस्य प्रतिनिधि सभायाः पुरसभामुखस्य च सुभाष चन्द्र नेमाङ इत्यस्य निधने शोक प्रस्ताव पारित कृतो वर्तते। दलस्य नेतुः केपी शर्मा ओलिनः अध्यक्षतायाम् उपविष्टेन तेनोपवेशेन राष्ट्रस्य लोकतान्त्रिकान्दोलनाय संविधानस्य निर्माणाय च नेमाङ इत्यनेन निरूढा भूमिका अविस्मरणीयास्तीति निर्णीतं वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड संयुक्त राष्ट्रसंघस्य मुख्यालये न्यूयर्कस्थाने आयोक्ष्यमाणायां संयुक्त राष्ट्रसंघस्य अष्टासप्ततितम्यां महासभायां सहभागितायै नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधान स्वशनिश्चरवासरे तत्र प्रस्थाता। प्रधानमन्त्रिणा अस्यैव सेप्टेम्बर मासस्य एकविंशे दिवसे संयुक्त राष्ट्रसंघस्य महासभायां सम्बोधनस्य कार्यक्रमोऽस्तीति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। एतद्वर्षीयायाः महासभायाः विमर्शनस्य विषय विश्वव्यापिन्याः एकतायाः पुनर्निर्माणं विश्वासः पुनर्जागरणं चेति त्रिंशदुत्तर द्विसहस्रतम ख्रीष्टवर्षस्य विषय अस्य सबलविकासलक्ष्यं समेषां शान्त्यै समृद्धये प्रगत्यै सबलतायै च तीव्रता प्रदानम् इति निर्धारितो वर्तते। बालबालिकासु निवेशनम् सुनिश्चित भविष्यस्य प्रारभणम् इति समाघोषेण विविधैः कार्यक्रमैः सह अद्य एकोनषष्टितमः बालदिवसः राष्ट्रिय बाल दिवसः समायोज्यमानो वर्तते। उपलक्ष्यस्मिन् शुभकामना सन्देशं ददत राष्ट्रपति रामचन्द्र पौडेलः नेपालस्य संविधानेन बालबालिकानाम् अधिकाराः मौलिकाधिकाराणाम् रूपेण सुनिश्चिताः सन्तीति उल्लिखति। राष्ट्रपतिः पौडेलः सन्देशे निगदति बालाधिकाराणां सम्बन्धे व्यवस्थितानां सांविधानिकानां विधिगतानां च प्रावधानानां प्रभावकारी क्रियान्वयनाय राज्यस्य त्रिभिः स्तरैः सह समेषां सर्वकारीयाणां सर्वकारीयेतराणां च निकायानां नागरिकसमाजस्य अभिभावकानां विद्यालयानां अन्येषां सम्बद्ध निकायानां च एकीकृता समन्वयकारिणी च भूमिका दायित्वं च भवतः। राष्ट्रपति पौडेलः सन्देशे बालबालिकाः भविष्यस्य कर्णधाररूपाः सन्तीति उल्लिखन् एतासाम् उचित संरक्षणम् लालन पालनम् च सर्वेषाम् कर्तव्यमस्तीति प्रतिपाद्य च एतासाम् बाल्यकालस्य लालन पालनेन एव राष्ट्रस्य भविष्यस्य प्रतिबिम्बनम् विधीयते इति वर्णयति। वर्तमानार्थिक वर्षस्य प्रारभणात् अधुनावधि मार्गानुशासनस्य उल्लङ्घनकारिणो लक्ष्यं सप्तदश सहस्राणि अष्टाषष्ट्युत्तर शतचतुष्टयञ्च यानचालकाः जनाः दण्डिताः सन्ति। संघीय राजधान्याः नगरीय क्षेत्र सार्वजनिक यातायात परिषदः ह्य उपविष्टे उपवेशे उपत्यका यातायात व्यवस्थापन प्रहरी कार्यालयस्य प्रहरी वरिष्ठो परीक्षक राजेन्द्र प्रसाद भट्टः वर्तमानार्थिक वर्षस्य प्रारभणात् अधुनावधि मार्गानुशासनस्य उल्लङ्घनकारिणः एतावन्तो जनाः दण्डिताः सन्तीति अज्ञापयत्। संयुक्त राष्ट्रसंघस्य आह्वाने लिबिया देशे विद्यमानाः सर्वे शतद्वयं पञ्चत्रिंशच्च नेपाली शान्ति सैनिकाः सुरक्षिताः वर्तन्ते। लिबिया देशस्य पूर्वभागे डानियल नाम्नः झञ्झावातस्य कारणेन दुरापन्नेन विनाशकारिणा जलविप्लवेन पञ्चसहस्रेभ्योऽपि अधिकाः जनाः मृताः सन्तीति अनुमितं वर्तते। घटनास्थलात् नेपाली शान्ति सैनिकानां शिविरम् आसन्न शतं त्रयोदश चेति किलोमीटर मितायां दूर्यां वर्तते इत्यतः कापि क्षतिः न सम्भूता सर्वे नेपाली सैनिकाः सुरक्षिताश्च सन्तीति सैनिक प्रवक्ता कृष्ण प्रसाद भण्डारी अज्ञापयत्। भण्डारिणः अनुसारेण जलविप्लवस्य कारणेन सहस्रशो जनाः विलुप्ताः सन्तीति हेतोः मृतकानां संख्या वर्धितुं शक्नोतीति च अनुमितं वर्तते। भीषण वृष्टेः पश्चात् जलबन्धनद्वयस्य भञ्जनस्य कारणेन देर्ना तटीय नगरस्य एकचतुर्थांशो भाग जलविप्लवेन प्रवाहितो वर्तते। काष्ठमण्डप महानगरपालिकायाः कृषि पशुपक्षी विभागेन असुरक्षिततया दुग्धस्य दुग्धजन्य परिकाराणां च विक्रेतृन् आपणान् मापदण्डस्य अनुसारेण सञ्चालयितुं व्यवसायं पञ्जीकारयितुं च निर्दिष्टं वर्तते। विभागस्य वरिष्ठ पशु चिकित्सकाधिकृतः डाक्टर अवदेश झा ह्यः सूचनां प्रकाश्य दुग्धस्य दुग्धजन्य पदार्थानां च विक्रयकारिणः आपणान् एवं निरदिशत् इति समाचाराः।